अस्तु भगिनि,
अस्तु भगिनि, पठतु.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं, संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते जयन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमाधरम्. हिन्दुधर्मसमाजं च पवित्रां संस्कृतिं तथा संरक्षयननु कुर्यां, विश्वं शान्ति शान्तिसमन्वितम्.
उत्तमं भगिनि. अन्तिमवाक्यं संरक्ष्य ननु कुर्याः,
संरक्षणनु कुर्याः, संरक्षयननु कुर्याः,
संरक्ष्य ननु कुर्याम,
ननु कुर्याम,
कुर्याम,
कुर्याम, संरक्षणनु कुर्याम, विश्वं शान्ति समन्वितम्.
उत्तमं भगिनि. ॐ शान्ति शान्ति शान्ति, हरिः ॐ श्री गुरुभ्यो नमः, हरिः ॐ. उत्तमं, सर्वेषां स्वागतम्. अहं सर्वान् म्यूट् करोमि इदानीं. सम्यक् एव अस्ति. अस्तु, प्रथमं वयं किं पठितवन्तः, गतवर्गे किं पठितवन्तः इति एकवारं पश्यामः. किं पठितवन्तः गतवर्गे वयं? तुमुनन्तं खलु, त्वा ल्यप् अनन्तरं तुमुनन्तम्, तेषां सम्बन्धः कः, अथवा परिवर्तनं कर्तुं शक्नुमः वा इति पठितवन्तः. अस्तु, उदाहरणार्थं सः दुर्गुणं त्यजति, सज्जनः भवति. प्रथमं दुर्गुणं त्यजति, अनन्तरं सः सज्जनः भवति.
नमस्कार भगिनि, ज्योतिः.
स्वागतं ज्योति भगिनि.
नमस्कार भगिनि, उमारेड्डि.
उमारेड्डि भगिनि, स्वागतं.
नमस्कार भगिनि, महेश कश्यप.
महेश महोदय, स्वागतम्.
कनेक्टिङ्ग् फ्रोम् द मोबैल् फोर् द फस्ट् टैम्. सिग्नल् इस् वेरि वीक् बट् ऐ विल् अटेम्प्ट् टु स्टे फोर् द एण्टैर् क्लास् भगिनि.
अस्तु अस्तु महोदय, धन्यवादः धन्यवादः. सो अत्र सः दुर्गुणं त्यजति, अनन्तरं सज्जनः भवति. अतः दुर्गुणं त्यजति इति प्रथमकार्यम्, अनन्तरं सज्जनः भवति. प्रथमकार्यं यत् अस्ति तस्य त्यक्त्वा अथवा त्वान्तं, त्वान्तम् अथवा ल्यप् ल्यबन्तम् रूपं स्वीकरोति. अस्तु, त्यजति इति त्यक्त्वा सज्जनः भवति, त्यक्त्वा दुर्गुणं त्यक्त्वा अनन्तरं सज्जनः भवति. सो अत्र वयं थुमुन् प्रत्ययम् उपयुज्य वाक्यं वक्तव्यं चेत् वयं सज्जनः भवितुं, किमर्थं दुर्गुणं त्यजति? सज्जनः भवितुं, सज्जनः भवितुं दुर्गुणं त्यजति. सो अत्र तुमुन् प्रत्ययम् उपयोगं कर्तुम् इच्छामः चेत् किमर्थम् इति प्रश्नं पृच्छामः चेत् सुलभः भवति. किमर्थं दुर्गुणं त्यजति? सज्जनः भवितुं दुर्गुणं त्यजति. अस्तु. महिला गीतं गायति, पूजां करोति. प्रथमकार्यं किं? गायति. अनन्तरं पूजां करोति. महिलाः, क्षम्यतां, महिलाः गीतां गायन्ति, पूजां कुर्वन्ति. महिलाः गीतां गीत्वा, गीत्वा एव. एकवचने अपि गीत्वा, बहुवचने अपि गीत्वा, भूतकाले अपि गीत्वा, भविष्यत्काले अपि गीत्वा, सर्वत्र, प्रथमपुरुष उत्तमपुरुष सर्वत्र त्वा त्वा त्वा, तुमुन् 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 एव. अव्ययानि. गीतं गीत्वा पूजां कुर्वन्ति. गीतं गीत्वा पूजां कुर्वन्ति. अस्तु. अन्य नियमः अस्ति, एकः एव कर्ता. सः दुर्गुणं त्यजति, सः एव सज्जनः भवति. महिलाः गीतं गायन्ति, अर्चकाः पूजां कुर्वन्ति इत्युक्ते त्वान्तं लभन्तम् अथवा तुमुनन्तं कार्यं न करोति अत्र. ओके, एक एव कर्ता, एकः एका अथवा एकः एव कर्ता अत्र. अस्तु. का आरम्भं करोति? गोपिका भगिनी करोति वा? जननी.
नमस्ते भगिनी, शुभगुरुदिवस.
भगिनी वदतु.
शुभगुरुदिवस इति वदति.
ओ एवं.
हेपी टीचर्स् डे इति.
ओ एवं वा, धन्यवादः भगिनी.
जननी शाकं नीत्वा पाकं कृतवती, त्वा प्रत्ययः. अनन्तरं जननी पाकं कर्तुं शाकं नीतवती.
उत्तमं, समीचीनं, बहु समीचीनं, स्पष्टम् अस्ति. सर्वे अवगच्छन्ति वा? धन्यवादः भगिनी. सर्वे अवगच्छन्ति वा? अत्र शाकं नीत्वा पाकं कृतवती. किमर्थं शाकं नीतवती? पाकं कर्तुं शाकं नीतवती. गोपिका भगिनी, अत्र नीतवती इति स्थाने आनीतवती इति वदतु भगिनी. आनीतवती.
अस्तु. जननी शाकं, जननी शाकम् आनीत्वा पाकं कृतवती.
जननी, एकनिमिषम्, अत्र आनीत्वा इति सम्यक् वा? आ इति उपसर्गः खलु.
आम्.
सो अत्र आनीय इति आगन्तव्यं खलु. आनीय.
जननी शाकम् आनीय पाकं कृतवती. जननी पाकं कर्तुं शाकम् आनीतवती.
उत्तम, उत्तमं भगिनि, धन्यवादः. सो अत्र त्वान्तम् अस्ति चेत् उपसर्गः नास्ति. उपसर्गः अस्ति चेत् त्वान्तं न आगच्छति, परन्तु ल्यप् आगच्छति. ल्यबन्तम्, लेप् 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 इत्युक्ते य इति अन्तिमरूपं. त्वान्तम् अस्ति चेत् त्वा इति अन्तिमरूपं. सो अत्र नीत्वा, परन्तु आनीय, आनीय पाकं कृतवती. परन्तु अत्र नेतुं, जननी शाकं नेतुम् आपणं गतवती. नेतुं, परन्तु आनीतुम्, आनेतुम् अपि सम्यक् एव. आनेतुम् अत्र उपसर्गः अस्ति वा नास्ति वा इति न मुख्यं, मुख्यविषयः न. कुत्र तुमुन् तुमुन् प्रत्ययं यदा वयं योजयामः तत्र उपसर्गः अस्ति वा नास्ति वा इति चिन्तनं मास्तु. आनेतुं नेतुम् एव. अवगतम्? त्वान्तलभन्तरूपे एव उपसर्गः अस्ति चेत् ल्यप्, उपसर्गः नास्ति चेत् त्वान् इति एव अस्ति. अस्तु. केतकी भगिनी, महिलाः
फलं दत्त्वा शाकान् शाकानि स्वीकरिष्यति. महिला शाकान् शाकानि स्वीकृत्य धनं ददाति.
स्वीकर्तुम् अतः कर्तुम् आगच्छति खलु सुमन् प्रत्यय.
स्वीकर्तुं धनं ददाति.
अवगच्छति वा किमर्थम् अत्र स्वीकर्तुम् इति?
बिकास् आफ् द धनं ददाति.
नो, द रीज़न् इस् किमर्थं धनं ददाति?
बिकास् आफ् द ब्रिङ्गिङ्ग् शाका.
सो अत्र महिलाः किमर्थं धनं ददाति? शाकान् स्वीकरणार्थं. स्वीकरणार्थं पूर्वं वयं पठितवन्तः खलु करणार्थं पठनार्थं ज्ञानार्थम् इति. स्वीकरणार्थं ददाति, धनं ददाति. अथवा वयं स्वीकर्तुम् अपि वक्तुं शक्नुमः.
आं भगिनि.
अस्तु, धन्यवादः. शारदा भगिनी.
आं भगिनि, वयं फलानि आनीय भवते दद्मः.
उत्तमम्. आनीय दद्मः, उत्तमम्.
भवते दातुं वयं फलानि आनयामः.
आनयामः, उत्तमं भगिनि. सर्वे अवगच्छन्ति वा? अस्तु.
Bhagini, she is not audible at all. I couldn't hear anything.
Oh, could hear, Mahodaya. So what she said?
Her voice was very feeble for me.
Oh, evam va. Punaha vadati va Bhagini, Sharada Bhagini?
Aam Bhagini. Vayam phalani aaniya bhavate dadmaha. Is this clear?
Aye. Mahodaya?
भवते दातुं वयं फलानि आनयामः.
धन्यवादः भगिनि. अस्तु, श्रीनिवास महोदय.
शुनकः जलं पिबति, मार्जलः निद्राति. शुनकः जलं पीत्वा मार्जलः निद्राति.
अस्तु महोदय, अत्र there are two subjects खलु. शुनकः जलं पिबति. ओके, सो हियर् इट् विल् नाट् वर्क्. ओके, वि केनाट् डू दट्. सो अत्र पश्य अग्रिमवाक्यं पठतु. सो ऐ पुट् दिस् इन् देर् सो पीपल् विल् नो. टु डिफ्रेण्ट् सब्जेक्ट्स्, इट् विल् नाट् वर्क्. एका एव कर्ता भवितव्यं. कर्ता द्वयं वा त्रयं वा अस्ति चेत् अत्र त्वान्तं तुमनन्तं ल्यवन्तं किमपि कार्यं न करोति. अस्तु, अग्रे महोदय, अग्रिमवाक्यं पठतु. भवान्
गीतं शृणोति, आनन्दम् अनुभवति. भवान् गीतं श्रुत्वा आनन्दम् अनुभवति. भवान् आनन्दम् अनुभवितुम्
उत्तमम् शृणोति. उत्तमम्. अस्तु, न अवगच्छन्ति चेत् कृपया पृच्छन्तु, नो चेत् अग्रे अग्रे गच्छामि. बीना भगिनि, षष्टमवाक्यम्.
सा आपणं गच्छति, पुष्पाणि क्रीणाति. सा पुष्पाणि क्रेतुम् आपणं गच्छति. सा आपणं गत्वा पुष्पाणि क्रीणाति.
उत्तमम्, उत्तमम्. परमेश्वर महोदय, अग्रिमम्. सप्तमवाक्यम् परमेश्वर महोदय. अस्तु, सविता भगिनी.
यस् भगिनि,
सा गृहम् आगच्छति, सुखासने उपविशति. सा गृहं गत्वा डजन्ट् कम् बिकास् दिस् उपसर्ग.
करेक्ट्, उत्तमं.
सा गृहं, विच् वर्ड् विल् कम् हियर्?
So you go that, you go up to the gat, okay? Agat, yeah. Instead of gatva it will be ya, yeah. That's
agatya, okay. Sagraham, sagraham agatya sukhasane upavishati. Sukhasane upavishatum sagraham agachati.
So atra vishesha kriya padam, atra vishesha roopam asti. सुखासने
उपवेष्टुम्. ओ ऐ सी, ओके. सुखासने उपवेष्टुं सा गृहम् आगच्छति.
उत्तमं. सुखासने उपवेष्टुं सा गृहम्
आगच्छति.
अस्तु, उमाकृष्णन् भगिनी.
भगिनी,
पृच्छतु भगिनी.
भगिनी, केन् यू रिपीट्?
केतकि भगिनी, भवती एव वदतु. सा
आपणं गच्छति, पुष्पाणि क्रीणाति. पुष्पाणि क्रीणतु, सा आपणं गतवान्.
न न, सा आपणं गत्वा पुष्पाणि क्रीणाति. सा पुष्पाणि क्रेतुम् आपणं गच्छति. क्रेतुं. सो अत्र सर्वाणि पदानि सन्ति भगिनि. अत्र L1 हेण्ड् औट् मध्ये क्रीणाति इति वयं पश्यामः चेत् अत्र अस्ति क्रीत्वा क्रेतुम् इति. अस्तु, अत्र पश्यतु.
धन्यवादः.
अस्तु, somebody else had a question? Somebody said bhagini iti. Nava, astu.
It's me, Uma.
Uma Krishan, va?
I wanted to answer.
Astu bhagini, astu.
Yuvakaha pushpani grinati devam pujyati. Yuvakaha पुष्पाणि गृहीत्वा देवं पूजयति. विल् इट् गो दि अदर् वे टु सब्जेक्ट्?
आम् आम्, बिकास् देवम् इस् दि आब्जेक्ट् खलु. देवः पूजयति न, देवं पूजयति. या, इट् इट्
ओके. सो युवकः देवं पूजयितुं पुष्पाणि गृह्णाति.
देवं पूजयितुं. सो यत्र यति यति इति अस्ति, वी केन् से यितुं, यित्वा, पूजयित्वा, पूजयितुम् इत्यादि आगच्छति. सौन्दरं भगिनि, ते पत्रं लिखन्ति. सौन्दरं भगिनि, अस्तु,
ते पत्रं लिखित्वा प्रेषयन्ति. ते पत्रं प्रेषयितुं लिखन्ति.
उत्तमम्. ऐ लैक् हौ यु अवाय्डेड् दट्. उत्तमं भगिनि. प्रेषयितुम्. उत्तम. मालति भगिनि,
विच् वन् मेम्?
You will do the dashamam vakyam, bhagini. Vayam shalam.
Prakshalipantaha shantahasna. Vayam shalam prakshalitva.
So atra tva na agachati kalo, because we have pra upasarga.
Okay. प्रक्षाल्य श्रान्ताः
स्मः
प्रक्षाल्य वै मैम् ऐ डिण्ट् अण्डर्स्टाण्ड् देट्
सो अत्र क्षालयति इति एक क्रियापदमस्ति भगिनि क्षालयति प्रक्षालयति अपि अस्ति सो अत्र प्र इति योजितवन्तः खलु पूर्वम् आदौ आदौ मीन्स् इन् द फ्रण्ट् इन् द बिगिनिङ्ग् सो आदौ वयं प्र इति योजितवन्तः अतः उपसर्गः प्र इति उपसर्ग प्र उपसर्गः अस्ति चेत् तत्र य आगच्छति प्रक्षाल्य दिस् फार्म् इस् काल् ल्यप् ल्यप् ओके सो अत्र इन् दिस् सेण्टेन्स् the reverse will not work, it will go one way.
Sa
shalam prakshalya shantah
smah.
So we cannot say right to be tired we clean the
no place. we don't say that. Yeah,
we don't say that. So atra eka dishi eva vadati viparida dishi karyam na karoti.
प्रक्षाल्यवन्तः यु से प्रक्षाल्य वै इट् इस् नाट् प्रक्षालित्य सो हौ डु यु नो वेर् टु कट् इट् वेदर् इट् इस् इत् आर्
लैन सो ऐ गो बै द रूपं महोदय सो यु केन् सी देर् आर् बुक्स् आन् आल् दीस् थिङ्ग्स् ओके So we have to go by what is here.
This is more by practice only, trial and error, things will come in place. Because I thought Prakshalitya, then Prakshalitya was making more sense when you said.
I know.
You figure out where to cut it.
So we go by the forms, okay? So we always refer to books and charts and this and that. So the more practice you have, the more you read and do exercises, this will work out better. Astu Malati bagini,
can I answer the next one?
Parameshwar Mahadeva. Astu
chatraah prashnane prichandam udrani janandi.
So punah vadatu mahadeya. So atra
chatraah प्रश्नान् पृच्छत्वा उत्तराणि जानन्ति
पृष्ट्वा सो इफ् यु लुक् अट् द हेण्ड् औट्
पृष्ट्वा ओके पृष्ट्वा
कुत्र अस्ति इति अहं पश्यामि पृष्ट्वा नेक्स्ट् पेज् ओके
सेकेण्ड् पेज् फोर् आफ् द ऐटम्
अस्तु अत्र पश्यतु महोदय पृष्ट्वा ओके
देन् छात्राः पुत्राणि जानन्त्वं
सो अत्रापि इफ् यु नो बिकास् इफ् यु गेट् यूस् टु सेयिङ्ग् जानीतुं संथिङ्ग् दट् विल् स्टिक् इन् युर् हेड् खलु
ओके
सो here janati, what does it say here?
Jnatum
astu
so chatraah putrani jnatum prashnan puchanti
Prashnana prachanti astu. So I'll give you a hint. It doesn't work all the time, parantu 90% of the time. So atra vayam bhutakala rupani jani mahakalo prishtavan nyatavan kritavan patitavan lekitavan likitavan militavan prakshalitavan ityadi smritavan. So the twanta 11th roopa will be very closely resembling the bhutakala. So and then if we know the bhavishyat kala, like nyasyati, pasyati, prakshyati, these are all you know, something very different, melishyati ityadi. So when if we remember the bhavishyat kala, we can do the tumun pratyaya easily. So atra nyasyati, nyatum, prakshyati, prashtum, like that. Astu malati bhagini.
Namaste bhagini Ramya. Aham vadati va?
I finished.
Oh, you finished? Yes. Jyoti bhagini. Jyoti bhagini.
Bhavati natakam pashyatu bhojanashalayam khadatu. Bhavati bhojanashalayam khadatva natakam pashyatu.
So atra kimartam bhojana shala punah
natakam bhavati natakam pash no bhavati
bhagini. So atra how will you say the bhutakala how will you say I saw a natakam yesterday here aham natakam
I watched, right? I saw. Pashtva, right?
No. Drishtavati. Hello.
Bhavati natakam drishtva. Bhavati natakam drishtva. Bhojanashalayam khadatu. Right? Bhavati bhojanashalayam khadatva.
Kimartam.
Kimartam is
why, right? Bhojanashalayam khadittum.
Khadittum, yeah. Khadittum natakam drushyatu.
Pashyatu eva.
Pashyatu, yeah. Pashyatu. Again pashyatu.
Punah vadatu bhagini.
Bhavati natakam drushtva bhojanashalayam khadatu. Bhavati bhojanashalayam khadittum. Bhavati bhojanashalayam khadittum natakam pashyatu.
Uttamam bhagini. So just I'm asking, bhavati natakam pashyatu anantaram bhojanashalayam khadatu, natakam drishtva bhojanashalayam khadatu. Here some make question. What is the connection between khadithum and for the natakam pashyatu? Kalo.
Yes. So
if we don't see connection, we don't have to do the reverse.
Okay.
Bhojanashalayam khadithum natakam pashyatu. Kimartam? Na janami. Bhojanashalayam khadithum bhojanashalam gachatu is okay.
Yeah, two are there, so we can tell both one only.
In some, if it doesn't make sense, we do only one way.
One way. Okay, bhagini.
Astu.
Okay, dhanyavad bhagini.
Dhanyavad. Uma Reddy bhagini.
Bhagini.
Taha samskritam patanti.
Samskritam patanti santoshene. Santoshena hasanti. Hasanti. Taha samsutam patitva. Taha samsutam patitva santoshena hasanti. Santoshena hasantum.
No, hasitum.
Hasitum, okay. Santoshena hasitum taha samskutam patanti.
Uttamam bhagini. So atra how will you say the bhavishyat kala bhagini? Aham aham santoshena
patatu.
No, atra hasanti. अहं सन्तोषेण
असतुम् असत्
भगिनि ऐम् जस्ट् सेयिङ्ग् सपोसिङ्ग् ऐ से अहं सन्तोषेण हसामि इदानीं श्वः श्वः अहं सन्तोषेण
सन्तोषे सः सन्तोषेण
न भगिनि अत्र अत्र पश्यतु अत्र सो हसति इति कुत्र अस्ति इति पश्यतु एकनिमिष हसति अत्र अहं हसामि इदानीं हसामि
अहं हसामि
श्वः अहं हसिष्यामि
हसिष्यति
अत्र अस्तु बट् इफ् ऐ से अहं हसिष्यामि हसिष्यामि
अहं हसिष्यामि
हसिष्यामि सो इफ् यु लुक् अट् द वुमन् फार्म् इट् विल् बि आल्मोस्ट् द सेम् हसि हसि अण्ड् देन् यु एड् द तुम्
हसितुं
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 मेलिष्यति मेलितुं
मेलितुं
मेलितुं लेखिष्यति लेखितुं
लेखितुं ओके
ओके सो दिस् विल् बि अ वेरि गुड् रिव्यू फार् द भविष्यत् काल भूतकाल आल्सो धन्यवादः महेश महोदय अस्ति वा
आं भगिनि
बालकः
जननीं स्मरति
रोदिति
बालकः जननीं स्मृत्वा रोदिति
स्मृत्वा रोदिति
But the other opposite one cannot have it's not
cannot work. Uttama correct it cannot work
okay roditum jananim smarati is not right
not right correct so the other way it does not work uttama mahodaya it
does not
work astu so just for that do the next one too durjanah
aam bagini durjanah sajjanah दुरभ्यासं त्यक्त्वा सज्जनः भवति दुर्जनः सज्जनः भवितुं दुर्जनः दुरभ्यासं त्यजति
उत्तमं शियर् इट् वर्क्स् ब्यूटिफुलि उत्तमं महोदय रम्या भगिनि
दुर्जनः सज्जनः भवति शान्ति प्राप्नोति
शान्तिं प्राप्नोति
शान्तिं प्राप्नोति सज्जनः भूत्वा शान्तिं प्राप्नोति दुर्जनः शान्तिं प्राप्तुं
सज्जनः
भवति
उत्तम सज्जनः भवति अस्तु अन्य कोऽपि अस्ति वा
कृपया प्राप्तुं लिखित्वा दर्शयति वा प्राप्तुं
अत्र अत्र अस्ति इति मन्ये भगिनि एकनिमिषम्
अस्ति वा अस्तु
नास्ति अस्तु अहं दर्शयामि पश्यन्ति वा
आं भगिनि धन्यवादः
अस्तु अस्तु अन्य कोऽपि अस्ति वा यः न उक्तवान् अथवा उक्तवती सर्वे कृपया म्यूट् मध्ये गच्छन्तु सर्वे Asta. So, Atra, we have covered all these things now. Huh? Prathamam, we have patati. Vartamanakala. So this we call a lakara. Lakara ityukte linga bhedah nasti. Saha patati, sa patati, paranto purusha bhedah asti. Saha patati, aham patami. Okay. Linga bhedah nasti, purusha bhedah asti. Uttama purusha is, like in English we say, third person. Saha, sa. Bhavan is also, we consider, third person. Aham is first person in English, parantu samskrita bhashayam uttama purushaha. So this is a proper lakara. So we call it lakara, which means it is a proper verb. Lakara, this is a lakara. So atra, this lakara, it shows the time. Kalam suchayati. Vartamana kalaha. Okay, vartamana kalaha. This one, ajna. Ajna is when you ajna or pratana, like a request or an order. When we tell people, patatu, kripaya patatu. He deva, sarve, sukinaha, bhavantu. Prarthana atava ajna. So this is also a lakara. Because we have uttama purusha, we have patatu. For madhyama purusha, it is only pata. For, uttama purusha, na? Prathama purusha, it is patatu. And then we have uttama purusha, madhyama purusha, all these things are here. So this is also a lakara because this changes. There is no linga bheda. Even for boys, we say patatu. For girls also, we say patatu. So atra linga bheda ha nasti. Parantu, in this one, it shows the kala, right? Kala suchayati. Atra kalam nas suchayati, kalo. It doesn't show whether it is Vartamana Kala, Bhuta Kala, Bhavishyat Kala. It doesn't show. So this one we just say Bhavam Suchayati. Bhavam. I'm not writing clearly, but this is Bhavam Suchayati. You don't need to know this very well, but just for your information, it's good to have this information. Vartamana Kala, Lakara, Kalam Suchayati. This is also a Lakara. But kalam na suchayati. Atava ataha bhavam suchayati. So atra bhuta kala. Is this a lakara?
Yes. Kalam suchayati.
This one na, kalam suchayati. But is this a lakara?
No.
Yes.
Linga bedaha asti.
Linga bedaha asti. Ataha, it is not a lakara. Okay. Because we have the linga vedaha, this is not a lakara. Okay. So we call this eskridanta form. That means something is added. So we call it a kridanta form. Wherever there is a linga bedaha, when it is not a lakara, then it is kridanta. That's it. If it is not a lakara, then it is kridanta. Okay, next one. Bhavishyat kala. Saha patishyati, sa patishyati. Aham patishyami. Is this a lakara or no?
Yes.
Lakara.
Lakara. Lakara. So, does it show kalam? Kalam suchayati va, vartamana kala.
No.
and kalam api suchayati, kalam suchayati and it is a lakara. Okay, so this swa and sumun, is it a lakara? Bhavan patitva gachato, aham patitva gachami. No. So this is not a lakara. Therefore it is a kridanta form. Krit anta we call kridanta. So they are both the same. Krit. Lakara, they are not lakara, and these are kridanta form. Okay. Okay, I'm going to mute everybody. Okay, so this is an overview of
Bhagini.
Vadatu Bhagini.
Kridanta and Pratyaha
Vedaha Nasti Bhagini. This is just a different way of saying it, that's all.
Astu, Dhanyavad.
Okay, yeah, so when we say Krit Anta, the Pratyaya also we put in the end. Good question, Bhagini. So we either have Lakara or Kridanta forms. So in any verb, Kriya Padani Asti Chet, Lakara Bhavati Atava Kridanta Rupani Bhavanti. Lakara Asti Chet, Linga Bhedaha Nasti. Parantu Purusha Bhedaha Asti. Uttama Purusha, Madhyama Purusha, Pratama Purusha. Pratama Purusha is third person including Bhavan Bhavati. Madhyama Purusha, we are not learning now. Uttama Purusha is Aham. Aham is the only one which has me ending. Aham Patami, Vayam Patamaha. For now, everything else is the ending. So with this, we can express everything we want to. Aham Saha Patati, Aham Patami. Te Patanti, Vayam Patamaha. Bhavan patatu, bhavantaha patantu. So for aham, we say aham patani, ni, with a na. Not patami, but patani. Bhavati patitavati, bhavan patitavan. Te patitavantaha, taha patitavatyaha. Sa patishyati, saha patishyati, aham patishyami, because it is a lakara. Okay, because it is a lakara, saha patishyati, aham patishyami. So, atra, it is not a lakara, and it doesn't even have linga bheda. Here we have linga bheda. Atra, linga bheda api nasti. Purusha bedaha api nasti. Kimapi nasti. Ataha avyayam. Avyayam. So this will be an interesting thing. So you can pick 5 kriyapadani. So this will be part of your homework. Pick any 5 kriyapadani and you write eka vachanam bahu vachanam for this. Asti va, udaharanartam, milati. Pick something that is hard, something difficult. Like metum, lekitum, like that. Saha likati, te likanti. Aham likami, vayam likamaha. Bhavan likatu, atava bhavati likatu, bhavatyaha likantu. So one thing about the 2 ending, we generally say Bhavan likato, Bhavati likato. When we say Saha likato, what does it mean when we say Saha likato?
Let him read.
Let him write. Correct. Let him write. So this will be a not Ajna, not Prarthana, but giving Anumati. So this is like giving permission. Anumati. Anumati. Astu. So saha likitavan, sa likitavati, sa likishyati, aham lekishyami bahuvachanam and then likitva lekitam. So this will be a very good exercise. Astu. Sarve avagachanti va?
Yes, Bhagini.
And then we also have sma, kalu, sma. Sma also you can add somewhere. Astu. Agre gachamaha. So we have the different common pairs, common popular pairs in the Abhyasa Pustakam. Itopi Pariyantam. Up to now, we have learned Yadi Tarhi. Chet no Chet. Yada Tada. Yavat Tavat. Yatha Tata. Twa Labantam Tumunantam. These are all when we add two sentences together. Vakya Dvayam Asti. Tat Yojayamaha Chet. Vayam Yadi Tarhi. चेत् नो चेत् यदा तदा यावत् तावत् यथा तथा त्वा ल्यप् तुमुन् इत्यादयः उपयुज्य एकवाक्यं लेखितुं शक्नुमः यथा सा गायति तथा अहमपि गातु यथा तथा इति सा गायति अहं न गातुं शक्नोमि यथा सा गायति तथा अहमपि गातुं शक्नोमि इति अस्ति अद्य वयम् एतानि पश्यामः यथा यतः अतः यत्र तत्र इत्यादयः अस्तु अहम् अग्रे अग्रे गच्छामि प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु यत्र तत्र यत्र शर्करा अस्ति पृच्छतु
गृहपाठे एकः प्रश्नः 20 First one, Sangrihnati, what is the...
Sangrihya.
Labantam form?
Sangrihya. Grihya.
Dhanyavada.
Astu, Bhagini. Astu, aham, etat darshayami, atra. Present. यत्र तत्र शर्करा अस्ति पिपीलिकाः भवन्ति मीन्स् दे विल् बी देर् सो इट्स् नाट् अ श्योर् थिङ्ग् वेन् एवर् इट्स् नाट् अ श्योर् थिङ्ग् वि से भवन्ति यत्र शर्करा अस्ति तत्र पिपीलिकाः भवन्ति यत्र दीपः अस्ति तत्र प्रकाशः भवति अवगच्छति वा यत्र तत्र
भगिनि भवन्ति इस् वेन् वि आर् नाट् श्योर् भवति इस् डेफिनेट् ऐ थाट् सिङ्गुलर् प्लूरल्
आमामां सिङ्गुलर् प्लूरल् एव सो वयं निश्चयेन न वक्तुं शक्नुमः खलु यत्र शर्करा अस्ति तत्र पिपीलिकाः सन्ति अस्तु उत्तमः प्रश्नः महोदय उत्तमः प्रश्नः अस्तु यत्र दीपः अस्ति तत्र प्रकाशः भवति यत्र क्रीडा अस्ति ओके अस्तु अहं पृच्छामि गोपिका भगिनी क्रीडा वदतु यत्र
यत्र दीपः अस्ति तत्र प्रकाशः भवति
उत्तमं केतकी भगिनि क्रीडा
यत्र क्रीडा भवति तत्र बालकाः भवन्ति
यत्र क्रीडा अस्ति यत्र क्रीडा अस्ति
यत्र क्रीडा अस्ति तत्र बालकाः भवन्ति नौ ऐ अण्डर्स्टाण्ड् भगिनि
No, no, no. When you are not sure, instead of asti, you say bhavati.
Bhavati.
Shvaha vrishtihi bhavati. Nischayana na jani maha. Nischayana na.
Right. Okay.
Okay? Okay. So, yatra tatra is not because we are not sure. Bhavati is because we are not sure. अस्तु शारदा भगिनी आपणः
यत्र आपणः अस्ति तत्र ग्राहकाः भवन्ति
हा यत्र आपणः अस्ति तत्र ग्राहकाः भवन्ति उत्तमं श्रीनिवासमहोदय
यत्र कृष्णः अस्ति तत्र विजयः अस्ति
अस्ति एव उत्तमम् अस्ति एव निश्चयेन बीना भगिनी
आं भगिनि यत्र धूमः अस्ति तत्र
अग्निः भवति अथवा अस्ति एव खलु यत्र धूमः अस्ति तत्र अग्निः अपि अस्ति एव सो वी केन् इण्टर्प्रेट् इट् लैक् देट् आल्सो भगिनि अस्तु
धन्यवादः
धन्यवादः भगिनि परमेश्वर महोदय पर्वतः वायुः
यत्र पर्वतः अस्ति तत्र वायुः अस्ति
वायुः अस्ति अथवा वायुः भवति वायुः भवति अपि
भगिनी केन् यू टेल् दिस् यत्र पर्वतः अस्ति तत्र वायुः पोल्यूषन् वाट् यु से वायु प्रदूषणं नास्ति केन् यू टेल् इट्
वायुप्रदूषणं नास्ति वा
नास्ति यत्र पर्वतः अस्ति तत्र वायुप्रदूषणं नास्ति
उत्तमं भगिनि अस्तु
यस् भगिनि सविता
सविता भगिनि वदतु
आं भगिनि
अग्रिमं वदतु भगिनि धर्म
यत्र धर्म अस्ति तत्र विजय भवति
विजयः भवति अथवा अस्ति अपि विजयः
अस्ति
अस्तु केतकि भगिनी प्रश्नः वा आम् भवति एव भवति
धन्यवादः
अस्तु सौन्दरम् उमाकृष्णन् भगिनी स्वस्य वाक्यं वदति वा यत्र तत्र यत्र नदी अस्ति तत्र अस्तु सौन्दरं भगिनि यत्र नदी अस्ति तत्र
उमारेड्डि भगिनि
उमारेड्डि वा अहम् उमाकृष्णन् अथवा सौन्दरं भगिनी पृष्टवती अस्तु भगिनि भवती एव वदतु कुमारेड्डि भगिनि
यत्र नदी अस्ति तत्र
किम् अस्ति
यत्र नदी अस्ति तत्र जलमस्ति
जलमस्ति अस्तु मीनाः सन्ति उत्तमं भगिनि अन्य कोऽपि वक्तुम् इच्छति वा यत्र तत्र
भगिनि ज्योति
वदतु
यत्र उद्यानम् अस्ति तत्र पुष्पाणि अस्ति सन्ति
सन्ति और् भवन्ति
भवन्ति
भवन्ति उत्तमम् अन्य कोऽपि
मालती
मालती अनन्तरं महेश महोदय मालती भगिनि
दिस् वन् ऐ डोण्ट् नो हौ टु से बट् यत्र धर्मः अस्ति तत्र विजयः सन्ति
अस्ति अथवा भवति अस्ति अस्ति एव वदामः विजयः अस्ति
विजयः
यत्र धर्मः अस्ति तत्र विजयः
अस्ति
अस्तु महेश महोदय
यत्र वदम् अस्ति तत्र वृक्षाः सन्ति
भगिनि उत्तमम् महोदय, यत्र वनम् अस्ति तत्र वृक्षाः सन्ति. उत्तमम्. अस्तु भगिनि वदतु.
उमारेड्डि भगिनि.
उमारेड्डि,
यत्र देवालयम् अस्ति तत्र
देवालयः
अस्ति तत्र भक्ताः सन्ति.
उत्तमं. भक्ताः सन्ति अथवा भवन्ति. इदानीं कोविड् कारणे सन्ति इति न वक्तुं शक्नुमः खलु. भवन्ति भवन्ति. अस्तु अग्रे गच्छामः. अतः अतः इति मम. अस्तु भगिनि.
यत्र लक्ष्मीः निवसति तत्र धनं भवति.
उत्तमम् उत्तमम् उत्तमं भगिनि. यत्र तत्र अभवत्. इदानीम् अतः इति पश्यामः. मम समीपे धनम् अस्ति अतः अहं दानं करोमि. मम बुभुक्षा अस्ति अतः अहं खादामि. स्थालिकायां भोजनम् अस्ति अतः अहं खादामि. स्थालिकायां भोजनं नास्ति अतः अहं खादितुं न शक्नोमि. अवगतम्? अतः आरोग्यं सम्यक् नास्ति अतः सः चिकित्सालयं गच्छति. अद्य पौर्णमी अस्ति अतः अहं पूजां करोमि. इत्युक्ते पौर्णमी नास्ति चेत् अहं पूजां न करोमि इति अर्थः.
अतः मीन्स् वाट् मेडम्? दट्स् वै.
दट्स् वै. अतः अस्तु. का वदति? रम्या भगिनी वदतु. विद्युत् नास्ति दीपः न ज्वलति. भगिनी रम्या भगिनी.
विद्युत् नास्ति अतः दीपः न ज्वलति.
विद्युत् नास्ति अतः दीपः न ज्वलति. उत्तमम्. उमा कृष्णन् भगिनी अस्ति वा?
आं भगिनि.
वदतु.
अद्य अनोत्सवः.
ओणोत्सवः. ओणम् इति खलु ओणोत्सवः.
अद्य ओणोत्सवः. अतः कार्यालयस्य विरामः अस्ति.
अतः कार्यालयस्य विरामः अस्ति. अस्तु. वीणा भगिनि.
सम्यक् न पठितवान् अतः सः परीक्षायाम् अनुत्तीर्णः.
दट् मीन्स् हि डिड् नाट् पास्. उत्तीर्णः मीन्स् पास्. अनुत्तीर्णः मीन्स् नाट् पास्. उत्तमं भगिनि. सो सर्वे अवगच्छन्ति खलु अतः इति. सो इदानीं यतः गोविन्दः. सो अत्र वि हाव् द ओके. गोविन्दः रोदिति. किमर्थं रोदिति? गोविन्दः रोदिति यतः सः पतति. यतः अहम् उपवासम् आचरामि यतः अद्य एकादशी. यतः अद्य एकादशी. अहं न खादामि यतः भोजनं नास्ति. अहं बहिः न गच्छामि यतः कोविड् कारणात् अहं गृहे एव भवितव्यम्. अहं हसामि यतः अहं सन्तोषम् अनुभवामि. यतः अस्तु गोपिका भगिनी अहं
अहं संस्कृतं पठामि यतः संस्कृतं सुलभम्
उत्तमं केतकी भगिनी
तथा वस्त्रं मास्तु यतः तस्य मूल्यम् अधिकम्
यतः उत्तमं शारदा भगिनी
अहं कार्यालयं न गच्छामि नो
यतः यतः अद्य भानुवासरः उत्तमं श्रीनिवास महोदय
दीपः न ज्वलति यतः विद्युत् नास्ति
उत्तमं यतः अतः इदानीं परिवर्तनं कर्तुं शक्नुमः वयम् आरोग्यं सम्यक् नास्ति अतः सः चिकित्सालयं गच्छति सः चिकित्सालयं गच्छति यतः आरोग्यं सम्यक् नास्ति अस्तु परमेश्वर महोदय अस्तु सविता भगिनी
यस् भगिनि विद्युत् नास्ति
सारी विद्युत् नास्ति
विद्युत् नास्ति अतः दीपः न ज्वलति
सो यु से द सेकेण्ड् सेण्टेन्स् फस्ट्
दीपः न ज्वलति यतः विद्युत् नास्ति
उत्तमम् सौन्दरं भगिनि अद्य
गणेशोत्सवः
भवत्याः ध्वनिः सम्यक् नास्ति भगिनि
विद्यालयस्य
विरामः अस्ति अस्तु विद्यालयस्य विरामः अस्ति यतः अद्य गणेशोत्सवः अस्तु अग्रे गच्छामि अग्रे गच्छामि भगिनि वदतु यु आर् हेविङ्ग् सम् नेट्वर्क् इश्यूस् भगिनि अस्तु अहम् अग्रे
गच्छामि
आम् भगिनि यु आर् हेविङ्ग् सम् प्राब्लम्स् अस्तु सारि मालति भगिनी अहं संस्कृतं पठामि वदतु
अहं संस्कृतं पठामि यतः संस्कृतं सुलभम् यतः संस्कृतं सुलभं
अस्तु सो अत्र भगिनी यु स्टार्ट् वित् संस्कृतं सुलभम्
ओ यतः संस्कृतं सुलभं
यतः मास्तु
ओके संस्कृतं सुलभं यतः अस्ति नो अतः संस्कृतं पठामि
संस्कृतं सुलभम् अतः संस्कृतं
पठामि
संस्कृतं सुलभम् अतः
संस्कृतं पठामि
महेश महोदय अहम्
आं भगिनि अद्य भानुवासरः अतः अहं कार्यालयं न गच्छामि
उत्तमम् अहं कार्यालयं न गच्छामि यतः अद्य भानुवासरः अतः अहं कार्यालयं न गच्छामि प्रश्नाः सन्ति वा यतः अतः
कनेक्टेड् बैक् अस्ति भगिनि
सो अत्र So we have a reason and what we are doing because of the reason. Arogyam samyak nasti. Ataha aham chikitsalayam gachami. If arogyam is samyak, then chikitsalayam aham na gachami. Hello?
Bhagini, third one. Samyak na patitavan ataha sa parikshayam anuttirnaha. Okay.
அதனால் அத்தக எதனாக அதனால் எதனால்
அதனால் எதனால்
ஓகே 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 தன்யவாத்
பகினி அத்தக எதக சேம் சென்டென்ஸ் இட் கேன் நாட் கம்
இட் வில் பி ஆக்வர்ட் பக் லைக் பிகாஸ் ஆஃப் சம்திங் தேர்ஃபோர் வி டோன்ட் யூஸ்வலி சே தட் பகினி யூ நோ பிகாஸ் ஐ டிட் நாட் ஹேவ் இட் ஐ அம் நாட் ஹாப்பி பிகாஸ் தேர் இஸ் நோ ஃபுட் ஐ டிட் நாட் ஈட் We don't say, because there is no food, therefore I did not have. We don't say it like that, Bhagini. Okay? Ekam eva pariyaptam. Bhojanam nasti, ataha aham na khadami. Aham na khadami, yataha bhojanam nasti. Okay? Just one is enough. Lekani nasti, ataha aham na likami. Aham lekitum na shaknomi. லேகனி நாஸ்தி அதஹ அஹம் லேகிதும் ந ஷக்னோமி கிமர்த்தம் பவதி ந லிகிதவதி அஹம் அஹம் ந லிகித so you say the result first அஹம் ந லிகிதவதி யதஹ லேகனி நாஸ்தி Okay, so either the yataha or the ataha comes in the middle. Kimartam jalam na pibati, how will you answer? Aham jalam na pibami, you tell that first. Aham jalam na pibami.
Yataha pibasa nasti.
பிபாசா நாஸ்தி அதவா ஜலம் ந இச்சாமி ஓகே சோ யூ கிவ் தி ரீசன் why you didn't drink the water சோ தி अदर पर्सन will say ஜலம் ததாமி அதஹ பவதி பிபது something அதஹ that is therefore யதஹ because अस्तु अन्यप्रश्नः अस्ति वा अस्तु अग्रे ऐ एम् गोयिङ्ग् अ बिट् फास्ट् बिकास् ऐ वुड् लैक् टु फिनिश् आफ् सम् टापिक्स् इफ् ऐ एम् गोयिङ्ग् टु फास्ट् प्लीस् लेट् मी नो अस्तु अत्र किन्तु अहं लिखामि किन्तु लेखनी नास्ति अहं पठामि किन्तु पुस्तकं नास्ति परन्तु वी केन् आल्सो से परन्तु अहं दूरदर्शनं पश्यामि परन्तु दूरदर्शनं नास्ति अहं पिबामि परन्तु जलं नास्ति अथवा किन्तु जलं नास्ति अस्तु मधुरम् इच्छामि किन्तु धनं नास्ति बुभुक्षा अस्ति किन्तु रोटिका नास्ति भोजनं नास्ति फलं क्रेतुम् इच्छामि परन्तु आपणः उद्घाटितः नास्ति उद्घाटितः आपणः उद्घाटितः सो इफ् इट् इस् अ स्त्रीलिङ्ग वर्ड् उद्घाटिता आपणः उद्घाटितः
अर्थः कः भगिनि
उद्घाटितः मीन्स् ओपेन् इट् इस् नाट् ओपेन्
ओपेन्
शाला उद्घाटिता मन्दिरम् उद्घाटितम् अस्तु सा दूरदर्शनं द्रष्टुम् इच्छति किन्तु विद्युत् नास्ति. अत्र विद्युत् अस्ति परन्तु विद्युत् नास्ति. सो अत्र किन्तु सो केन् समवन् गिव् मी सेण्टेन्सेस् किन्तु अथवा परन्तु उपयुज्य. एनिबडी?
अहं कार्यालयं गन्तुम् इच्छामि किन्तु कोविड्
कारणात्
न गच्छामि.
उत्तमं. किन्तु उत्तमं. केतकी भगिनि?
भारतदेशं गन्तुम् इच्छामि परन्तु
विमानानि न चलन्ति. उत्तमं. किन्तु विमानानि न चलन्ति. अस्तु उत्तमं. अग्रे गच्छामि अथवा वाक्यानि वदन्ति वा कोऽपि? वदतु भगिनि.
अहं देवालयं गन्तुम् इच्छामि किन्तु देवालयम् उद्घाटितं नास्ति.
उत्तमं. परन्तु देवालयः एव
देवालयः अतः उद्घाटितः
नास्ति. उत्तमम् उत्तमम्.
गृहे एव पूजां करोमि.
उत्तम. किन्तु अतः सर्वम् आगच्छति. उत्तमं भगिनि.
भगिनि
वदतु.
ज्योति हियर्. अहं ग्रन्थालयं गन्तुम् इच्छामि किन्तु ग्रन्थालयम् उद्घाटितं नास्ति.
अत्र ग्रन्थालयः उद्घाटितः
नास्ति.
उत्तमं भगिनि. अस्तु अस्तु अग्रे गच्छामि. प्रश्नाः सन्ति वा किन्तु इति विषये? नास्ति. अस्तु निश्चयेन. निश्चयेन ग्रन्थालयः उद्घाटितः अस्ति अतः अहं निश्चयेन गच्छामि. स्थालिकायां भोजनम् अस्ति अहं निश्चयेन खादामि. निश्चयेन क्षीरम् अस्ति निश्चयेन पिबामि.
भगिनि अहं वदतु.
अहं वदामि. वदतु भगिनि.
ग्रन्थालयम् उद्घाटित अस्ति किन्तु संस्कृतपुस्तकं
नास्ति. उत्तमवाक्यं भगिनि. ग्रन्थालयः उद्घाटितः अस्ति किन्तु संस्कृतपुस्तकं नास्ति. उत्तमम्. उत्तमवाक्यं भगिनि. अस्तु कोरोना अस्ति निश्चयेन मुखावरणं धरतु. सो अत्र अतः अपि योजयामः खलु. कोरोना अस्ति अतः निश्चयेन मुखावरणं धरतु. कोरोना अस्ति चेत् निश्चयेन मुखावरणं धरतु. सो वी केन् एड् एनिथिङ्ग् वी वाण्ट्. कोरोना अस्ति चेत् निश्चयेन मुखावरणं धरतु अथवा कोरोना अस्ति अतः निश्चयेन मुखावरणं धरतु. पिपासा अस्ति चेत् निश्चयेन फलरसं पिबामि. पिपासा अस्ति अतः निश्चयेन फलरसं पिबामि. अस्तु अहं निश्चयेन संस्कृतेन सम्भाषणं करोमि. ओके सो दट् इस् द नेक्स्ट् टापिक्. अस्तु वदति वा निश्चयेन उपयुज्य वाक्यानि?
ओके
वदतु भगिन महोदय.
अद्य संस्कृतवर्ग अस्ति, निश्चयेन वयं पठामः.
उत्तमम् उत्तमम्. निश्चयेन अन्येकवाक्यं somebody else. अन्य कोऽपि वदति वा?
परश्वः भानुवासरः, अतः निश्चयेन अहं वाट् टु से फार् क्लीन् क्लीन् भगिनि
अहं गृहं वा गृहं प्रक्षालयामि.
ओके नो
कपाटिकां अथवा निधानिका पुस्तकनिधानिकां प्रक्षालयामि.
पुस्तकनिधानिकां प्रक्षालयामि
प्रक्षालयामि. उत्तमं
निश्चयेन
उत्तमं भगिनि. अस्तु अग्रे गच्छामि. अत्र किल किल अथवा खलु अथवा ननु. सो अत्र वयं समाचारं जानीमः केवलं अस्ति. एतत् उदाहरणार्थं मम नाम राधिका किल इति अहं वदामि. इत्युक्ते आम् इति एव.
इण्डीड्
इण्डीड् अथवा इस् इट् नाट् लैक् दट् इस् इट् नाट् इति. अद्य शुक्रवासरः किल लैक् दट्. अस्तु अद्य भोजनं कृतवान् किल. सो वि थिङ्क् दि आन्सर् इस् येस्. अतः गणितम् अवगतं किल. एषः भवतः शुनकः किल. मधुरम् इच्छति किल. अस्तु एकवाक्यं वदतु किल उपयुज्य. किल
अद्य संस्कृतवर्गः किल.
उत्तमं किल. अहं वदामि. वदतु.
अहं वदामि संस्कृतं. मम वाक्यं शुद्धम् अस्ति किल.
अहं संस्कृतेन वदामि. मम वाक्यं शुद्धमस्ति किल. आं शुद्धमेव भगिनि. गोपिका भगिनि वदतु. उत्तमं केतिका भगिनि. गोपिका भगिनि
वर्गे अन्यविषयाः पठामः किल.
अन्यविषयान् पठामः किल. पठामः किल. आम् निश्चयेन
श्वः शिक्षकदिवसः किल.
आम् श्वः शिक्षक
दिवसः किल.
दिवसः एव. अस्तु अस्तु अग्रे गच्छामः. वदतु महोदय.
संस्कृतः सुन्दरभाषा अस्ति किल.
आम् सुन्दरभाषा एव. धन्यवादः. उत्तमवाक्यं मधुरवाक्यं. धन्यवादः. अस्तु अग्रे गच्छामि
भगिनि. किल मीन्स् इङ्ग्लिश् मीनिङ्ग्
इस् इट् नाट्.
इस् इट् नाट्.
भवत्याः नाम उमा रेड्डि किल. वदतु.
मम माता अति प्रेमी किल.
प्रेमी किल. सो यु हाव् टु गो
प्रेमी किल.
किल. सो यु हाव् टु ड्राग् इट् रैट् किल. अस्तु अन्यवाक्यं वदतु महोदय. श्रीनिवास महोदय, यु आर् ट्रैङ्ग् टु से समथिङ्ग्?
सः सः गाङ्गुलीन् सञ्जः किल.
पुनः वदतु. सः
सः गाङ्गुली गाङ्गुलीय अनुजः किल.
गाङ्गुलीयाः गाङ्गुल्याः खलु.
गाङ्गुलीयाः अनुजः किल.
किल अस्तु. एकनिमिषं श्रीनिवासमहोदय वसेयिङ्ग्
सम्थिङ्ग्
इस् ओके. ओके अस्तु. अन्य भगिनी, यु आर् सेयिङ्ग् सम्थिङ्ग्?
अमेरिका देशे पूर्णो नास्ति किल.
अस्ति अस्ति. सो ऐ केनाट् से आम्.
ओ
कोरोना अस्ति.
मम भारतदेशं बहु रमणीय किल.
रमणीयं भारतदेशं
रमणीयं रमणीयं किल.
रमणीयमेव. सो अत्र भारतदेशः रमणीयः. भारतदेशः रमणीयः. उत्तमम् उत्तमं महोदय. सो अत्र यत्र तत्र अभवत् तुमुन् अभवत् अहम् अग्रे गच्छामि. अनन्तरं अस्तु. यतः अतः भवन्तः गृहपाठरूपेण एतत् करोतु. अभ्यासान् कुर्वन्तु. अतः अत्र अस्ति. अस्तु. यः सः यः सः या सा यत् तत् अस्तु. यः आगच्छति सः मम पुत्रः. यः क्रीडति सः क्रीडालुः. यः गायति सः गायकः. इत्यादि विषयः अवगच्छति वा? यः यः पाकं करोति सः कः? पाचकः. यः गच्छति सः मम पतिः. या गायति सा मम पुत्री. या पाठं पठति सा छात्रा. या उत्तरं ददाति सा शैला शैलजा. यः प्रश्नं पृच्छति सः गोपालः. अन्येकवाक्यं वदति वा कोऽपि? यः सः
या संस्कृतं पठामि पाठयति सा नाम राधिका महोदये.
उत्तमं. तस्याः नाम राधिका महोदय. या संस्कृतं पाठयति तस्याः नाम राधिका. उत्तम उत्तम महोदय, बहु उत्तम. अन्य वदतु भगिनि. भगिनि वदतु.
ओके भगिनि. या विमानयानं चलति सा वैमानिका.
सा वैमानिका. उत्तमं. पैलट्. या सा या चालयति सा सा वैमानिका. उत्तमं. धन्यवादः. उत्तमवाक्यम्.
भगिनि, यः वनवासं गच्छति सः रामः.
उत्तमं. यः वनवासं गच्छति सः रामः.
रामः.
उत्तमम्. अन्य
भगिनि
वदतु.
या नर्तकं करोति सा मम पुत्री.
सा नर्तनं करोति सा मम पुत्री. उत्तमम् उत्तमम्. या सा यः सः तथा वदतु.
सा अध्यापिका मम प्रियः.
सो अत्र या अपि आगन्तव्यं भगिनि. या
बट् ऐ वांट टु से सा अध्यापिका.
अध्यापिका अस्तु सा अध्यापिका मम प्रिया उत्तमं सो अत्र या अपि योजयामः चेत् कथं भवति या इदानीं पाठयति उत्तमं या सा या लैक् उत्तमं सो अत्र यथा यत् तत् अपि आगच्छति यत् पुस्तकम् अहं पठामि तत् समीचीनम् अस्ति यत् यत् गृहं अहं क्रीणामि तत् बहु सुन्दरं यत् तत् यत् यत् पुस्तकं भवान् पठति तत् रामायणम् अस्तु अत्र अन्यविषयः अपि अस्ति केवलं यः सः या सा यत् तत् न या गच्छति तस्याः नाम रेणुका ओके वी केन् यूस् अदर् वाट् यु काल् द विभक्तीस् आल्सो यस्य नाम रेणुका तस्यै पुस्तकं ददातु यः गच्छति तं पृच्छतु ओके सो वी केन् यूस् दट् आल्सो सो बट् इन् जनरल् फार् नौ वि विल् यूस् यत् तत् या सा यः सः अन्यविषयमपि अहं पाठयामि सारी इफ् ऐ एम् रशिङ्ग् यु प्लीस् लेट् मी नो if I am rushing too fast atra yadyapi tathapi yadyapi mama haste dhanam asti tathapi aham aapanam na gachami yadyapi corona naste tathapi aham bahihi na gachami yadyapi samayah asti tathapi aham दूरदर्शनं न पश्यामि यद्यपि बुभुक्षा अस्ति तथापि अहं न खादामि यद्यपि भोजनं नास्ति तथापि अहं पाकं न करोमि अवगतं वा यद्यपि सः निर्धनः दानं करोति यद्यपि सः निर्धनः तथापि दानं करोमि सो अत्र प्रथमम् अस्ति यद्यपि अत्र तथा अपि सो अत्र यदि अपि लैक् यदि अपि बिकम्स् यद्यपि अत्र तथा अपि
यद्यपि
एकमेकं वाक्यं वदन्तु कृपया
यद्यपि समयः नास्ति तदापि अहं विमानयानं करोमि
विमानयानं चालयामि वा अथवा
I will take the route of aeroplane to travel
अस्तु अहं यद्यपि समयः अस्ति अहं विमानेन एव तथापि अहं विमानेन
गच्छामि
विमानेन गच्छामि उत्तमं महोदय
यद्यपि समयं नास्ति अहं भोजनं तथापि
उत्तमं भगिनि अत्र भगिनि समयः नास्ति अस्ति इति वदतु उत्तमम् अन्य
यद्यपि समयं नास्ति
समयः
नास्ति तथापि अहं
पूजां करोमि उत्तमं पूजां करोमि उत्तमम् अन्य
यद्यपि मम प्रश्नः अस्ति त तथापि राधिका भगिनी स्पष्टा करोति.
यद्यपि तत्र यद्यपि अधिकं प्रश्नाः सन्ति वा? यद्यपि मम अधिकाः प्रश्नाः सन्ति तथापि सा स्पष्टं करोति. उत्तमं. यद्यपि अन्य सर्वे अवगच्छन्ति वा? यद्यपि तथापि अस्तु अस्तु. अत्र अत्र अहं प्रेषयामि यत् सो अत्र सर्वम् अस्ति. अत्र आल् द थिङ्ग्स् वि लर्न् टुडे बट् नाट् एव्रिथिङ्ग् इस् द यतः अतः यः सः यत्र तत्र यद्यपि तथापि. अन्य विषयः अपि अस्ति, तत् सर्वम् अहं प्रेषयामि गृहपाठरूपेण कुर्वन्तु. अत्र अभ्यासपुस्तके अपि बहु विषयाः सन्ति, भवन्तः कुर्वन्तु. यद्यपि तथापि यत् तत् यः सः अपि च यतः अतः विषये एतत् सर्वं कृतवन्तः वयम्. अस्तु अग्रे पश्यामः. प्रश्नाः सन्ति वा?
नास्ति.
अस्तु वदतु भगिनि.
एकवारं यद्यापि तथापि अर्थः वदति वा?
हा अस्तु. सो अहम् अर्थं न वदामि परन्तु वाक्यानि वदामि. यद्यपि बालकः लघु अस्ति तथापि तथापि सः बृहत् कार्यं करोति. यद्यपि अहं किञ्चिदेव जानामि, किञ्चित् संस्कृतमेव जानामि, तथापि अहं संस्कृतेन वक्तुम् इच्छामि. यद्यपि किञ्चित् एव पाकं कृतवती मम अम्बा, तथापि सर्वे आगच्छन्तु मिलित्वा खादामः. यद्यपि मम समीपे किञ्चिदेव धनम् अस्ति तथापि अहं दानं कर्तुम् इच्छामि. यद्यपि मम समीपे अधिकं धनम् अस्ति तथापि अहं दानं न करोमि. अवगतं? यद्यपि तथापि यद्यपि वदतु भगिनि.
यद्यपि वृद्धाः अस्ति तथापि सा अधिकं कार्यं करोति.
उत्तमं. वृद्धा सा खलु वृद्धा. उत्तमम् उत्तमवाक्यम्. यद्यपि अहम् अधिकं पठामि तथापि स्मरणे न तिष्ठति. सत्यवाक्यम्. यद्यपि अद्य भानुवासरः तथापि विद्यालयस्य विरामः नास्ति. आन्लैन् माध्यमेन आन्लैन् माध्यमेव कुर्वन्ति कोरोना कारणात्. अवगच्छन्ति वा सर्वे?
आं भगिनि.
अस्तु विरमाम, शान्तिमन्त्रं वदामः. ॐ सर्वे भवन्तु
सुखिनः, सर्वे सन्तु निरामया,
सर्वे भद्राणि
भद्राणि पश्यन्तु,
शान्ति
शान्ति शान्तिः.
हरिः ओम् गुरुभ्यो नमः.
हरिः ओम्. धन्यवादः.
धन्यवादः. धन्यवादः सर्वे.
धन्यवादः.
धन्यवादः. धन्यवादः. धन्यवादः.